प्रथम स्कंध अथाष्टादशोध्याय राजा परीक्षित को श्रृंगी ऋषि का साथ सुत उवाच यो वै द्रोण्यस्त्र विप्लुष्टो न मातुरुदरे मृत अनुग्रहाद् भगवत कृष्णस्याद्भुत कर्मण ब्रह्म कोपोत्थिताजस्तु तक्षकात् प्राण विप्लवात् न सम्मुहोरुभयात् भगवत्यर्पिताशय उत्सृज्य सर्वतः संगम विज्ञाताजित संस्थितिम् वैयासकेर्जहो शिष्यो गंगायाम सोम कलेवरम् नोत्तम श्लोक वार्ता नाम जुषताम तत्कथामृतम् स्यात् संभ्रमंत कालेपि स्मरताम तत्पदाम्बुजम् तावत् कलिर्न प्रभवेत् विष्टोपीह सर्वतः यावदीशो महानुर्व्याम आभिमन्यव एकराट् जस्मिन्नह निजर्ह्येव भगवान उत्ससर्जगाम तदैवेहानुवृत्तो सावधर्म प्रभुः कलिः नानुद्वेष्टि कलिम् सम्राट् सारंग इव सारभुक् कुशलान्यासु सिद्ध्यन्ति नेतराणि कृतानि यत् किम्नु बालेषु सूरेण कलिना धीरभीरुणा अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते उपवर्णितमेतद्वः पुण्यम् पारीक्षितम् मया वासुदेव कथोपेतम् आख्यानम् यदपृच्छत या यः कथा भगवतः कथनीयोरुकर्मणः गुणकर्माश्रया पुंभि संसेव्यास्ता बुभूषभिः ऋषय ऊचुः सूत जीव समः सौम्य शाश्वतिर्विशदम् यशः यस्तम् संससिम् कृष्णस्य मर्त्यानामृतम् हिनः कर्मणस्मिन्नाश्वासे धूमधूम्रात्मनाम् भवान् आपाययति गोविन्द पादपद्मासवम् मधु तुलयामान् लवेनापि न स्वर्गम् न पुनर्भवम् भगवत्सङ्गसङ्गस्य मर्त्यानाम् किमुताशिषः को नाम तृप्येत रसवीत कथायामह तमैकांत परायणस्य नान्तं गुणानाम गुणस्य जगमूर योगेश्वराये भव पद्ममुख्यः तन्नो भवान वै भगवत प्रधान महत्तमैकांत परायणस्य हरेरुदारं चरितं विशुद्धं शुश्रूषताम् न वितनोतु विद्वन् स वै महाभागवतः परीक्षित् जनापवर्गाख्यमदभ्रबुद्धिः ज्ञानेन वैयासकशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् तन्नः परम् पुण्यमसंवृतार्थम् आख्यानमत्यद्भुतयोगनिष्ठम् आख्यायनन्ता चरितोपपन्नम् पारीक्षितम् भागवताभिरामम् सूत उवाच अहो वयम् जन्मभृतोऽद्यहास्म वृद्धानुवृत्त्यापि विलोम जातः दौष्कुल्यमाधिम् विधुनोति शीघ्रम् महत्तमानामभिधानयोगः कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य योऽनन्तशक्तिर्भगवानन्त महद्गुणत्वाद्यमनन्तमाहु एतावतालम् ननु सूचितेन गुणैरसाम्यान्नतिसायनस्य हित्वेतरान् प्रार्थयतो विभूतिर्जस्याङ्घ्रिरेणुम् जुषतेन भीप्सोः अथापि यत्पादनखावसृष्टम् जगद्विरिञ्चोपहृतार्हणाम्भः शेषम् पुनानन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः यत्रानुरक्तः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् त्यम् व्रजन्ति तत्पारमहंस्यमन्त्यम् जस्मिन्न हिंसोपशमः स्वधर्मः अहम् हि पृष्टोर्यमणो भवद्भिर् आचक्षयात्मावगमोऽत्र जावान् नभः पतन्तात्मसमम् पतत्रिणः तथा समम् विष्णुगतिम् विपश्चितः। एकदा धनुरुद्यम्य विचरन् मृगयाम् वने मृगाननुगतः श्रान्तः क्षुधितस्त्रेषितो भृशम् जलाशयमचक्षाणः प्रविवेशतमाश्रमम् ददर्श मुनिमासीनम् शान्तम् मिलितलोचनम् प्रतिरुद्धेन्द्रिय प्राण मनो बुद्धिमुपारतम् स्थानत्रयात् परम् प्राप्तम् ब्रह्मभूतमभिक्रियम् विप्रकृण जटाक्षन्नम् रौरवेणाजिनेन च विशुष्यत्तालुरुदकम् तथा भूतमयाचत अलब्ध तृणभूम्यादिरसम् प्राप्तार्घ्यसुन्नृतः अवज्ञातमिवात्मानम् मन्यमानश्चकोपः। अभूतपूर्वः सहसा क्षुत्रिर्भ्यामर्दितात्मनः ब्राह्मणम् प्रत्यभूत् ब्रह्मन् मत्सरो मन्युरेव च। स तु ब्रह्मऋषेरंसे गता सुमुर्गम् लुषा विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत्। एष किम् निवृता शेष कर्णो मिलिते क्षणः मृषा समाधिराहोऽस्वित् किम् नु स्यात् छत्रबन्धुभिः। तस्य पुत्रोऽति तेजस्वी विहरन् बालकोर्वकैः राज्ञाघम् प्रापितम् तातम् श्रुत्वा तत्रेदमब्रवीत्। अहो अधर्मः पालानाम् पिन्वाम् बलिभुजामिव स्वामिन्यघम् जद्दासानाम् द्वारपानाम् सुनामिव। ब्राह्मणैः छत्रबन्धुर्हि द्वारपालो निरूपितः स कथम् तद्गृहे द्वास्थ सभाण्डम् भोक्तुमर्हति। कृष्णे गते भगवति शास्त्रुत्पथगामिनाम् तद्भिन्नसेतु नद्याहम् शास्मि पश्यतमे बलम्। इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः कौशिक्यापुपस्पृश्य वाग्वज्रम् विससर्जः। इति लङ्घितमर्यादम् तक्षकः सप्तमे हनि दंक्ष्यति स्म कुलाङ्गारम् चोदितो मे ततद्रुहम्। ततो भेत्याश्रमम् बालो गले सर्पकलेवरम् पितरम् वीक्ष्य दुःखार्तो मुक्तकण्ठोरुरोदः। सवा आङ्गिरसो ब्रह्मन् श्रुतवा सुतविलापनम् उन्मील्य शङ्कर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम्। विसृज्य पुत्रम् पप्रच्छ वत्स कस्माधिरोदिषि केन वार्ते अपकृतम् इत्युक्तः स निवेदयत्। निशम्य सप्तमतदर्हम् नरेन्द्रम् स ब्राह्मणो नात्मजमभ्यनन्दत्। अहो बताङ्गो महदज्ञते कृतम् अल्पीयसि द्रोह उरुर्दमोद्धृतः। न वै निर्भिर्नरदेवम् पराख्यम् सम्मातुमर्हसपि पक्वबुद्धे यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण कुतो भयः प्रजाः। अलक्ष्यमाणे नरदेव नाम्नि रथाङ्गपाणौ वयमङ्गलोकः। तदा हि चौर प्रचुरो विनङ्क्ष्यति अलक्ष्यमाणे विवरुथ वत्सणात्। तदद्य नः पापमुपैतनन्वयम् जन्नष्टनाथस्य वशोर्विलम्पकात्। परस्परम् घ्नन्ति सपन्ति वृञ्जते पशून् स्त्रियोर्थान् पुरुदस्य वो जनः। तदार्जधर्मश्च विलीयते नृणाम् वर्णाश्रमाचारयुतस्त्रयीमयः। ततोऽर्थकामाभिनिवेशितात्मनाम् सूनाम् कपीनामिव वर्णशङ्करः। धर्मपालो नरपतिः स तु सम्राट् बृहत्सवः साक्षान् महाभागवतो राजर्षिर्हयमेधयात्। क्षुत्रिश्रमयुतो दीनो नैवास्मच्छापमर्हति अपापेषु स्वभृत्येषु बालेन पक्वबुद्धिना। पापम् कृतम् तद्भगवान् सर्वात्मा क्षन्तुमर्हति। तिरस्कृता विप्रलब्धा सप्ताः क्षिप्ता हतायपि नाश तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभोऽपिः। इति पुत्रकृताघेन सोनतप्तो महामुनिः स्वयम् विप्रकृतो राज्ञा नैवाघम् तदचिन्तयत्। प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजितः न व्यथन्ति न हृष्यन्ति जत आत्मा गुणाश्रयः। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनम् नामाष्टादशोऽध्यायः।